श्री शीतला अष्टकम। भक्तजनों, आइए शीतला माता की 8 दिव्य श्लोकों से स्तुति करते हैं।
अस्य श्री शीतला स्तोत्रस्य महादेव ऋषि अनुष्टुप छंदः शीतला देवता लक्ष्मी बीजम भवानी शक्ति सर्व विस्फोटक निवृत्तये जपे विनियोगः। ईश्वर उवाच। वंदेहं शीतलां देवीं रासभस्थां दिगंबरां मार्जनी कलशोपेतां शूर्पालंकृतमस्तकां। वंदेहं शीतलां देवीं सर्वरोगभयापहां यमासाद्य निवर्तेत विस्फोटकभयं महत्। शीतले शीतले चेति यो ब्रूयाद्दाह पीडितः विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति। यस्त्वामुदकमध्येतु धृत्वा पूजयते नरः विस्फोटकभयं घोरं गृहे तस्य न जायते। शीतले ज्वरदग्धस्य पुतिगन्धयुतस्य च प्रणष्टचक्षुषः पुंसः त्वामाहुर्जीवनौषधम्। शीतले तनुजान् रोगान् ऋणान् हरसि दुत्यजान् विस्फोटकविदीर्णानां त्वमेकामृतवर्षिणी। गलगण्डग्रहारोगा ये चान्ये दारुणान् ऋणां त्वदनुध्यानमात्रेण शीतले यान्ति संक्षयम्। न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवतां। मृणालतन्तुसदृशीं नाभिहृन्मध्य संस्थितां यस्त्वां सञ्चिन्तयेद् देवी तस्य मृत्युर्न जायते। अष्टकं शीतला देव्यां यो नरः प्रपठेत्सदा विस्फोटकभयं घोरं गृहे तस्य न जायते। श्रोतव्यं पठितव्यं च श्रद्धा भक्ति समन्वितैः उपसर्ग विनाशाय परं स्वस्त्ययनं महत्। शीतले त्वं जगन्माता शीतले त्वं जगत्पिता शीतले त्वं जगद्धात्री शीतलायै नमो नमः। रासभोगर्धवश्चैव खरो वैशाखनन्दनः शीतलावाहनश्चैव दूर्वाकन्दनकृन्तनः। एतानि खरनामानि शीतलाग्रे तु यः पठेत् तस्य गेहे शिशूनां च शीतलारुण्न जायते। शीतलाष्टकमेवेदं न देयं यस्य कस्यचित् दातव्यं च सदा तस्मै श्रद्धा भक्तियुताय वै। इति श्रीस्कन्दमहापुराणे शीतलाष्टकं सम्पूर्णम्। हमारी कुलदेवी शीतला माता
सभी भक्तों का सदा सर्वदा कल्याण करें। जय माँ शीतले, जय सियाराम।